एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति नेपालीनाम् जीवन दर्शनमेव सेवया करुणया प्रेम्णा मानवतया शान्त्या च अभिप्रेरितमस्ति। रोटरी क्लब अफ भातगाउँ इति संस्थया ह्य शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः सहकारेण सद्भावेन सहिष्णुतया च सत्मार्गे गन्तुम् प्रेरणा लभ्यते इत्युक्तवान्। राष्ट्रपति पौडेलः निस्वार्थ भावेन मानव सेवायाम् समर्पणमेव महान् धर्मोस्तीति चर्चयन् विश्वशान्तेः अन्तर्राष्ट्रिय सहकार्यस्य मानव कल्याणस्य च क्षेत्रेषु रोटरी संस्थायाः प्रतिबद्धता अद्यतन समये सान्दर्भिकताम् आधिक्येन धत्ते इति प्रावोचत्। तदवसरे रोटरी क्लब संस्थया सह सम्बद्धा चतुर्दश जनाः सम्मानिताः अभूवन्। प्रतिनिधिसभायाः सभामुखः जोलप्रसाद अर्यालः देशस्य समृद्धये सुशासनाय भ्रष्टाचारस्य अन्त्याय च राज्यस्य त्रिषु प्रमुखेषु अंगेषु कार्यगतैकतायाः अपरिहार्यता अस्ति इति उक्तवान् वर्तते। अष्टषष्टितमस्य संसद दिवसस्य अवसरे ह्य आयोजिते कार्यक्रमे सभामुख अर्यालः देश निर्माणस्य औत्सुक्याय सार्थक्यम् प्रदातुम् देशम् द्रुततरगत्या समृद्धम् विधातुम् च कार्यपालिकायाः न्यायपालिकायाः व्यवस्थापिकायाश्च गतिभावनयोः समन्वयः अपेक्ष्यते इत्यभाषत। कार्यक्रमे सभामुख अर्यालः संविधानस्य अक्षरशः पालनायाः विधिशासनावधारणायाश्च दुर्बलत्वम् न विधेयम् इत्युक्तवान्। कार्यक्रमे राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः संसदि जनतायाः भावनायाः आवश्यकतायाः आकांक्षायाश्च प्रतिबिम्बनम् आवश्यकम् अस्ति इति बलम् प्रादात्। अध्यक्षः दाहालः संसदीयम् विमर्शनम् मर्यादितम् रचनात्मकम् परिणामयुतम् च विधातुम् आवश्यकम् अस्ति इत्यतः दलगत स्वार्थात् उपरि जनहिते केन्द्रीय भवनाय अनुरुणत। कार्यक्रमे विधि न्याय संसदीय विषय मन्त्री शोभिता गौतम संसदीयाभ्यासम् उपलब्धिमूलकम् विधातुम् जनतायाः आवश्यकताम् केन्द्रे संस्थाप्य विमर्शनम् विधेयम् इत्यभाषत। मन्त्री गौतम संसदि सांसदानाम् भाषा वेशभूषा च मर्यादिते अपेक्षिते स्त इति च अगदत्। साउदी अरब सर्वकारेण तदीयेषु कारागारेषु विद्यमानः त्रयस्त्रिंशत् नेपालिनः क्षमादान पुरस्सरम् कारागारेभ्य मुक्ताः सन्ति। परराष्ट्र मन्त्रालयेन ह्य विज्ञप्तिम् प्रकाश्य नेपालिनः राजकीय पक्षतः कारागारेभ्य मोचितः इति विषयमादाय साउदी अरब सर्वकाराय धन्यवादाः प्रदत्तः सन्ति। रमजान पर्वणः अवसरे साउदी अरब सर्वकारेण एते नेपालिनः क्षमादान पुरस्सरम् मोचिताः सन्तीति ज्ञापितम् वर्तते। नेपाल सर्वकारेण साउदी अरब सर्वकारस्य अस्य कार्यस्य प्रशंसां विधाय कार्यमितत् नेपालस्य अरब देशस्य च मध्ये दीर्घकालात् विद्यमानायाः मित्रतायाः सद्भावस्य द्विपक्षीयस्य सम्बन्धस्य च प्रतिबिम्बरूपेण गृहीतमस्तीति ज्ञापितम् वर्तते। रियादवर्तिना नेपाली दूतावासस्य माध्यमेन नेपाल सर्वकारस्य अनुरोधमाधृत्य साउदी सर्वकारेण नेपाली बन्दीजनः कारागारात् मुक्ताः सन्तीति परराष्ट्र मन्त्रालयेन संसूचितम् वर्तते। राजकीयाम् क्षेमाम् लब्धवन्तः नेपाली बन्दीजनः साउदी देशस्य आवश्यकीम् प्रक्रियाम् प्रपूर्य शीघ्रमेव नेपालम् प्रत्यागमिष्यन्ति इति परराष्ट्र मन्त्रालयेन ज्ञापितमस्ति। सूचना संचार मन्त्री डाक्टर विक्रम तिमिलसिन्हा नेपाल दूरसंचार क्षेत्रम् सेवाग्राही मैत्री विधातुम् गुणस्तरीयाम् सेवाम् प्रदातुम् च निर्देशति। ह्य सुन्धारावर्तिनः नेपाल दूरसंचारस्य सूचना प्रविधि निर्देशनालयस्य अन्तर्गतायाः बिजनेस सपोर्ट सिस्टम इत्याख्यायाः व्यवसाय समर्थन प्रणाल्याः दूरसंचार कार्यालयस्य निरीक्षणस्य क्रमे मन्त्री डाक्टर तिमिलसिन्हा सेवा प्रवाहम् अधिकम् प्रभावपूर्णम् पारदर्शिनम् च विधातुम् निरदिशत्। निरीक्षणस्य क्रमे नेपाल दूरसंचारस्य प्रबन्धक शालिकराम सुवेदी सूचना प्रविधि निर्देशनालयस्य माध्यमेन जायमानानाम् कार्याणाम् दूरसंचारस्य चिटिका प्रणाल्याः विषयेषु च विज्ञापयत्। हि एव चलचित्र विकास समितेः 26वां वार्षिकोत्सव समारोहम् सम्बोधयन् मन्त्री डाक्टर तिमिलसिन्हा चलचित्र क्षेत्रस्य आवश्यकताम् सम्बोधयितुम् विधिना नीत्या कार्यक्रमेण च चलचित्रोद्योगस्य सुदृढीकरणाय सर्वकारः तत्परोऽस्तीति अगदत्। चलचित्र विकास समित्या अभिभावकीय भूमिका एउटा निर्विढव्या इति छ असौ नेश्चिनोत। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालय अनलाइन इति वैद्युत प्रणाल्य माध्यमेन स्थानान्तरण स्वीकृति निवेदन प्रदातुं सर्वकारीय कर्मचारिण आहुता वर्तन्ते। मन्त्रालयेन ह्य सूचना प्रकाश्य वैद्युत प्रणाल्य माध्यमेन स्थानान्तरण स्वीकृति निवेदन प्रस्तुतुं कर्मचारिण आहुता सन्ति। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयेन विभिन्नेभ्य देशेभ्य वैदेशिकीं अनुमतिं गृहीत्वा दीर्घकालं यावत् कार्यालय अनुपस्थितेभ्य कर्मचारिभ्य स्पष्टीकरणं याचितमस्ति। मन्त्रालयेन सूचना प्रकाश्य अवकाश दिवसेषु समाप्तेषु सत्सु अपि स्वकीयेषु कार्यालयेषु उपस्थितिं विना विदेशेषु एव निवसतां कर्मचारिणां दण्डनाय विधिगत प्रक्रिया अग्रेसारिता वर्तते। वृष्टेः कारणेन हेटौडा कष्टमण्डप कान्ति लोकपथे रात्रौ यातायात साधनानां संचालनं निषिद्धमस्ति। मकवानपुर जनपद प्रशासन कार्यालयस्य अनुसारेण श्वप्रातः पञ्चवादनं यावत् कान्ति लोकपथे सर्वविधापि यात्रा निषिद्धा अस्ति। अत्रान्तरे जलवायु विज्ञान विभागेन देशस्य कतिपयेषु भागेषु सामान्यतः अधिकायाः वृष्टेः सम्भावनया हिमालयीय क्षेत्रेषु पर्वतीय क्षेत्रेषु च भूस्खलनस्य मार्गावरोधस्य नदीषु जलस्तर वर्धनस्य च सम्भावना अस्तीत्यतः सावधानताम् अवलम्बितुं सर्वे जनाः अनुरुद्धा वर्तन्ते। नेपाल तैल निगमेन पेट्रोलेन्धनस्य मूल्यं न्यूनीकृतमस्ति। निगमेन पेट्रोलेन्धने प्रतिलिटरमितं 20 रूप्यकाणि, डीजलेन्धने प्रतिलिटरमितं 30 रूप्यकाणि, मृत्तिका तैले च 30 रूप्यकाणि न्यूनीकृतानि सन्तीति ज्ञापितं वर्तते। एवमेव विमानेन्धनस्य अन्तरपक्षे प्रतिलिटरमितं 40 रूप्यकाणि, अन्तर्राष्ट्रियपक्षे च प्रति किलोलिटरमितं 65.2 अमेरिका देशीय डलर मुद्रा न्यूनीकृता स्थिति तैल निगमेन ज्ञापितं वर्तते। सहैव पाचनेन्धने प्रतिभाण्डं 100 रूप्यकाणि न्यूनीकृतानि वर्तन्ते। इति समाचारः।